एष रेडियो नेपालः सम्प्रति समाचारः श्रूयन्ताम् प्रवाचकः उपेन्द्र दाहालः। प्रधानमन्त्रिणः पुष्पकमल दाहाल प्रचण्डस्य सम्बोधनस्य पश्चात् ह्यः प्रतिनिधिसभायाः उपवेशः सुचारू अचलत्। प्रतिनिधिसभायाः उपवेशं सम्बोधयन् प्रधानमन्त्री प्रचण्डः अवोचत् लोकतन्त्रस्य संरक्षणाय सुदृढीकरणाय च सर्वैः एकत्र स्थातव्यम्। प्रधानमन्त्री प्रचण्डः समग्र देशस्य निराशातः आशायाः मार्गे सञ्चलनस्य स्थितौ सर्वैः सहयोगः विधातव्यः सन्नपि तत्सम्भूतं नास्तीति अकथयत्। प्रचण्डः संसदं सुचारू सञ्चाल्य संक्रमणकालिक न्याय प्रवृत्ति विधेयकानि शीघ्रातिशीघ्रं पारिति कर्तव्यानि इति चर्चयन् राष्ट्रजनतयोः पक्षे संसद अग्रे प्रवर्धते इत्यत्र आत्मना विश्वसितमस्तीति प्रावोचत्। प्रधानमन्त्री प्रचण्डः भिन्न प्रसंगे उक्तं सदपि सरदार प्रीतम सिंह प्रधानमन्त्रिणो नियुक्तेः स्वरूपे नास्तीति समस्पष्टयत्। प्रधानमन्त्री प्रचण्डः अतर्कयत् पुस्तक विमोचन कार्यक्रमे भिन्न प्रसंगे व्यक्ताम् अभिव्यक्ति विषयीकृत्य संसदीय स्पष्टीकरणस्य अवसरमेव न प्रदाय त्यागपत्रस्य अभियाचनं नाम संसदीय मर्यादा नास्ति। प्रधानमन्त्री प्रचण्डः पुत्र्याः ज्ञानुदाहालस्य उपचारस्य क्रमे संस्थितेः अवसरे सरदार प्रीतम सिंहेन देशस्य प्रधानमन्त्री भवितुं विहितः अनुरोधः एकस्मिन् कार्यक्रमे भावनावशात् उक्तः इति स्वीकृतवान्। प्रधानमन्त्री प्रचण्डः चक्रवृद्धिधनेन पीडितेभ्यो जनेभ्यो न्यायप्रधानस्य पक्षे आत्मना तया प्रवर्तितमिति समस्पष्टयत। प्रधानमन्त्री प्रचण्डः संसदः अवरोधनस्य परम्पराम् निवार्य विमर्शनस्य माध्यमेन समाधानस्य प्रयत्नार्थं बलं प्रादात्। प्रतिनिधिसभायाः गतदिवसीयोपवेशे राष्ट्रियसभायाम् उत्पन्नम् तत् ससन्देशं प्राप्तम् एतद् वैक्रमाब्दम् नेपाल विश्वविद्यालय विधेयकम् प्रस्तुतम् वर्तते। उपवेशेन राष्ट्रियसभायाः पूर्वसदस्यस्य लालकाजी गुरूङ इत्यस्य निधनं प्रति शोकप्रस्तावः पारितीकृतो वर्तते। प्रतिनिधिसभायाः अपरोपवेशः अस्यैव आषाढस्य एकोनत्रिंशे दिवसे दिवा एकवादने वस्ता। राष्ट्रियसभाया ह्य पूर्वाह्नस्य एकादशवादनाय निर्धारित उपवेश अद्य पूर्वाह्नस्य एकादशवादन पर्यन्तं स्थगितो भवत्। राष्ट्रियसभायाः अध्यक्षस्य सचिवालयस्य अनुसारेण विशेष कारणवशाद उपवेशोऽसौ अद्यतन दिवसाय समयान्तरितो वर्तते। गत विक्रमवर्षेण पुष्पलाल राष्ट्रिय पुरस्कारेण विभिन्न क्षेत्रेषु योगदानं प्रापयन्तः तिस्रो व्यक्तयः सम्मानिताः सन्ति। एवं सम्मानितासु व्यक्तिषु राजनैतिक क्षेत्रस्य पक्षे कमल प्रसाद कोइराला, इतिहास क्षेत्रस्य पक्षे बालचन्द्र मिश्र र साहित्य संस्कृति विज्ञान क्षेत्रस्य पक्षे गोपाल प्रसाद थपलिया च सन्ति। संस्कृति पर्यटन नागरिकोड्डयन मन्त्रालयेन प्रतिवर्षं प्रदीयमानस्य एतस्य पुरस्कारस्य राशौ प्रतिव्यक्ति लक्षं रूप्यकाणि सन्ति। बालवाटार वर्तिनी प्रधानमन्त्री निवासे ह्य आयोजिते समारोहे प्रधानमन्त्री पुष्पकमल दाहाल प्रचण्डः पुरस्कृत व्यक्तिभ्यो गत वैक्रमाब्दं पुष्पलाल राष्ट्रिय पुरस्कारं प्रादात्। तदवसरे प्रधानमन्त्री प्रचण्डः लोकतान्त्रिकस्य वामपक्षीयस्य च आन्दोलनस्य एकतायै पुष्पलालस्य विचारः प्रेरणादायी अवर्तत इति चर्चयन् तस्यैव विचारस्य फलस्वरूपेण वर्तमानं संघीय लोकतान्त्रिक गणतन्त्रं स्थापितमिति प्रत्यपादयत्। प्रधानमन्त्री प्रचण्डः वासत पुष्पलालस्य विचारस्य प्रेरणया समुन्नत समाजस्य निर्माणाय वर्तमान सर्वकारः क्रियाशीलो वर्तते। सर्वकारस्य भ्रष्टाचार विरोधी क्रमिक संक्रमणं राष्ट्रस्य समुन्नतये केन्द्रितं चास्ति। कार्यक्रमे पूर्व प्रधानमन्त्री पुष्पलाल स्मृति प्रतिष्ठानस्य अध्यक्षश्च माधव कुमार नेपालः प्रजातन्त्रवादी वामशक्त्या मिलित्वा एव नेपालस्य निरंकुशं शासनं निवारयितुं शक्यते इति पुष्पलालस्य सततं कथनम् आसीत् इति स्मरन् तदनुरूपमेव अग्रे प्रवर्धनेनैव वर्तमानां संघीय लोकतान्त्रिक गणतन्त्रात्मक व्यवस्थां यावत् प्राप्तमिति अगदत्। संस्कृति पर्यटन नागरिकोड्डयन मन्त्री सुदन किराँती अकथयत् लालेन दृष्टान समुन्नत नेपालस्य स्वप्नान् क्रमेण पूरयितुं नेपालस्य राजनीतिक शक्तयः क्रियाशीलाः सन्ति। प्रधानमन्त्री पुष्पकमल दाहाल प्रचण्ड संघीय संसद शीतकालिक अधिवेशनस्य नूतन भवन एव सञ्चालनत्वेन निर्माण कार्यम शीघ्रं सम्पादयितुं निर्दिशति। सिंहप्रासादे निर्माणाधीनं संघीय संसद भवनं पूर्वेद्यो अवलोकयन् प्रधानमन्त्री प्रचण्ड पश्चात्तन दिनेषु भवन निर्माणस्य गतिशीलताम् आश्रित्य प्रसन्नताम् अभिव्यनक। असौ कार्यम् अतिरिक्तं तीव्रीकृत्य शीतकालिक अधिवेशनात् प्रागेव सम्पादयितुम् अन्वरुणत। परराष्ट्र मन्त्री एनपी साउद कथयति प्रतिवेशी राष्ट्राभ्याम चीन भारताभ्याम सह सम्बन्ध सन्तुलिता भवति। अन्तर्राष्ट्रिय सम्बन्ध पर्यटन समिते ह्य उपविष्टे उपवेशे परराष्ट्र मन्त्री साउद अवोचत उदीयमानार्थतन्त्रद्वयेन प्रतिवेशी राष्ट्रद्वयेन भारतेन चीन देशेन च सह सम्बन्धम् अतिरिक्तं सुदृढं विधाय पारदर्शी रूपेण स्वस्य विषया स्थापनीया। मन्त्री साउद एमसीसी नाम्नी अमेरिका देशीय सहयोग परियोजना आगामिन अगस्त मासाद क्रियान्वेष्यते। अपरा बेल्ड एण्ड रोड नाम्नी मार्ग परिवेष्टन परियोजना च क्रियान्वयनाय विमर्शनस्य क्रमे वर्तते इति अज्ञापयत। परराष्ट्र मन्त्री साउद कतिपय देशेषु राजदूतानां पदं रिक्तं वर्तते, अत राजदूत नियुक्ति सम्बद्ध निर्देशिकायाः मापदण्डस्य च अनुरूपमेव कतिचिन दिनेषु राजदूत नियुक्तै पूर्णता प्रदास्यते इति असूचयत। मन्त्री साउद दीर्घकालिक चिन्तनेन पञ्चानां वर्षाणां कृते षष्ठी लक्ष्याणि पारपत्र प्रपत्राणि क्रेतुं निर्णीतमस्तीति अज्ञापयत। वर्षायामस्य प्रारभणेन सहैव डेंगू रोगस्य संक्रमणस्य प्रसरणं रोद्धुं महामारी रोग नियन्त्रणमा शाखया स्वच्छीकरणे ध्यानं प्रदातुम् अनुरुद्धं वर्तते। महाशाखया ह्य आयोजितायाम् अन्तरक्रियायाम् महाशाखाया प्रमुख डाक्टर रुद्रमरासिनी सप्ताहस्य एकस्मिन् दिने सर्वेषु सर्वकारीय कार्यालयेषु स्वस्य गृहे वसतौ च स्वच्छीकरणस्य अभियानं सञ्चालयितुम् अन्वरुणत। महाशाखया डेंगू रोगस्य निरोधनाय गतवर्षात् आगामी पौषमासान्तं यावद् विशेष कार्ययोजनां निर्माय कार्यं विद्यमानम् अस्तीति महाशाखायाः प्रमुख डाक्टर मरासिनी अज्ञापयत। अन्तरक्रियायां प्रदत्तस्य ज्ञापनस्य अनुसारेण वर्षेस्मिन् डेंगू रोगस्य रोगिणानां संख्या आसन्न द्वादश शतं प्राप्ता अस्ति। अस्मिन् वर्षे एको जनः डेंगू रोगेण मृतो वर्तते। गत ख्रीष्टवर्षं यावद् डेंगू रोगस्य रोगिणानां संख्या चतुःपञ्चाशत् सहस्राणि चतुरशीत्यधिक सप्तशतं च प्राप्तास्ति। डेंगू रोगेण अधुनावधि 88 जना मृताः वर्तन्ते। वैतडी जनपदस्य मिलौली स्थाने ह्य दुरापन्नायां बसयानस्य दुर्घटनायां एको मृत एकचत्वारिंशत् जना आहताश्च वर्तन्ते। वैतडी जनपदस्य पञ्चेश्वर स्थानात् महेन्द्रनगराय प्रस्थीयमानं बसयानं मेलौली नगरपालिकाया सप्तमवडा क्षेत्रस्य स्वाखानी स्थाने दुर्घटितं सद पञ्चेश्वर ग्रामपालिकाया षष्ठवडा क्षेत्रस्य रन्तोली स्थानस्य सप्तविंशति वर्षीय उमेश भण्डारी मृत इति प्रहरी निरीक्षक योगेश खत्री ज्ञापयति। इति समाचाराः।